लेखनं पञ्चमः ईशुष्य त्वमेव प्राणरक्षकः अस्ति परिशुद्धग्रन्थेषु यूयं पश्यन्ति इदं विधानेषु ईश्वरस्य पुत्रः सः आगच्छ इदं विश्वेषु तेषु तस्य पापेषु पदन्ति तस्य मनुष्याणां रक्षक आसीत् इदं विधानेषु मेसय्याः रूपेषु ज्ञानं भवति ता इदं शब्दस्य परमार्थमस्ति इदं विधानेषु ईश्वरस्य तस्य पुत्राणां विश्वेषु आगमनं सन्ति इदं धरणेषु केनानि त्वं वदा तत्प्रकारेषु तस्य सूचकक्रियाणि च अद्भुताः कुर्वन्ति तेषु अनारोग्यस्थितिस्नां पदति तस्यं रक्षयन्तिका रक्षकः सः तेषु प्रजानां तस्य राज्येषु च स्वर्गस्य विधानेषु एषः वदति एकं दिनम् एकः अन्धः पन्तः समीपेषु उपविश्यति तः भिक्षयाटना कुर्वति एषः ग्रहितं तस्य अन्धकारेषु मा बहिर्गति एवम् ईश्वरात् प्रजानां रक्षणार्थं रक्षतः हठादार्पणं सः एकः बृहत् मनुष्याणां स्वरं ग्रहितं तत् शब्दं तस्य समीपेषु आगच्छयन्ति तत् जनसमूहेषु इदं वार्ता बहिर्गतं तत् वार्ता इदं विधानं ईशुष्या आगमनं सन्ति इदम् अन्धमानवः ईशुष्येषु वार्ता श्रुयं सः अद्भुतानि च महिमान्वितकार्याणि श्रूयन्ति सः सत्यं सत्यं विश्वसयन्ति तत् ईशूनाम् ईश्वरस्य पुत्रः किमेवम् ईश्वरस्य एवम् विदं विधानम् ईशस्य महिमानितकार्येषु कुर्वति स्त तत् बृन्दानि तस्य समीपम् आगच्छति तत् अन्धमनुष्यः उन्नतशब्देषु भो ईशु भो ईशु अहमेव इच्छन्ति इति ईशूणां तस्य हस्तं तत् अन्धेषु नयनेव स्पर्शयन्ति सा तस्या अन्धः स्वस्थं प्राप्ते पश्यशक्ते तत्क्षणेषु सः प्रभु ईशस्य आराधना करोति च तस्य पन्थाः अनुसरणं कुर्वन्ति किञ्चित् समयानन्तरम् इदं विधानेषु दीर्घस्वरेषु वयम् अपवित्रतास्तेषु स्वस्थता दद इदम् अस्वस्थता शरीरस्य रोगं सन्ति तेषु जनेषु इदं विधानं रोगम् आसीत् तेषु स्वस्थता मा प्राप्तं तेषु शरीरेषु असह्यानि गायानि स्तम् इदम् असितं रोगाणि यूयम् इदं विधानरोगेषु मनुष्याणां पश्यन्ति ईशुष्याकृपेषु तेषु जनानां तस्य स्वस्थतं प्राप्ति तेषु तस्य आनन्दोत्साहेषु तेषु गृहाणानि गच्छन्ति अपि च तेषु ईशुष्य धन्यवादाः अर्पणं विस्मरति एवं तेषु एकः सः इदं विधानेषु सः आगच्छयति धन्यवादां समर्पयामि च आराधं कुर्वति। तत्समयेन ईशुष्य तस्य हृदयेषु आसीत् रोगाणि एकसमयेन सः स्वस्थता ददाति। इदं धरणेषु ईशूणां जीवनं त्रयाशिंशिच्चा अर्धवत्सराणि। प्रधानजनेषु तस्यम् असह्यं कुर्वन्ति, तेषु जनानां सः बन्धितवान्, कृशारोपणं कुर्वन्ति, किलानी ताडनं तदा तस्य रुदितं स्रवन्ति च व्यापादितम्। एषः ईश्वरस्य पुत्रः अस्ति, सा इच्छयन्ती इदं विधानेषु तस्य व्यापादितं सर्वाणां जनाङ्गार्थम्। इदं विधानेषु वयमेव नरकस्य रक्षणं च स्वर्गद्वारेषु प्रविशितं दद। त्रीणि दिनेषानन्तरं सा पुनः जीवनं प्राप्तं च चत्वारिंशद्दिनान्तरं सः प्रगच्छयति तेषु पित्रा सन्निधानम्। इदं समयेन सा स्वर्गेषु आसीत् च सा वयं पश्यामति। यूयम् अस्माकं पापानां निमित्तार्थं व्यापादितं न इच्छन्ति, पुनः तत् शिक्षास्थलेषु नागच्छन्ति। सा इदं विधानं वदति, यूयम् आह्वानितं मम, अहमेवं त्वमेव पापानां क्षमापणं कुर्वन्तः, अहं तेषु नूतना जीवितं प्राप्तयन्ति। वयं केनेव ईशस्य आह्वानकार्यं कुर्वति, वयं तस्येषु भाषणम् इच्छन्ति, इदं वार्ताः प्रयोगं कुर्वता। प्रिया ईश्वर, अहं पापिः, अहमेव पापानार्धं वयं क्षमापणं प्राप्तिस्म, अहं येन कालं इदं दुष्टकार्याणि मा करोति। येषूनां त्वमेव धन्यम्, अहमेव स्यां त्वमा जीवनं तत् कृशे आरोहणं कुर्वति व्यापादितम्। त्वं कृपेषु अहमेव पापाः क्षमापणं दद च अहमस्या हृदयं निर्मितवान् सच्चं स्वच्छन्दम्। येषु पन्थेन गच्छति मार्गं प्राप्तिस्म, इदं सर्वम् अहमेव ईशस्य नामेषु याचितं, तदास्तु। किम् इदं प्रार्थनं त्वमस्य हृदयेषु आगच्छति? चापि ईश्वरस्य त्वमस्य प्रार्थनं श्रूयन्ते। पापम् एकः रोगस्यानां विधानमस्ति, तेषु त्वमेव हृदयान्तरम् आसीत् श्वनैश्वनैः खादयन्ति च। वयं प्रभु ईश्वरस्येनु तमेव हृदयेषु आह्वानम् अनुग्रह ददति। त्वमेवं वयं हृदयेषु प्रवेशयति स्म, वयमेव सर्वाणि पापानां च रोगस्य स्वच्छतम् अनुग्रहितम्। त्वं वयेवम् एकं शुद्धहृदयं ददा। इदं विधानेषु वयं शक्तिसम्पूर्णं भवन्ति, चापि ईश्वरस्य सत्यं यथार्थकार्याणि कुर्वन्तः। ईशेषु वद, धन्यवादाः समर्पयामि, अहमेव रक्षणार्थं रक्षणकर्ता। धन्यवादानाम् अहमेव हृदयं शुद्धनाय कार्यं करोति। चापि तत् अनन्तरं प्रभुयेशस्य महन्ति कार्याणार्थम् अन्येषु पश्यन्तां मा विस्मयन्ति।